सर्वेषां सुस्वागतं. लुट् लकारः इति पाठः प्रवर्तमानः अस्ति अत्र अद्यतनवर्गे. तत्र सामान्यम् अङ्गकार्यम् इति आरभ्य पठनीयम्. सर्वेषां पुरतः करपत्रं स्यात्. हेमा भगिनी, भवती आरब्धुमिच्छति वा सामान्यम् अङ्गकार्यम्?
अस्तु महोदय. सामान्यम् अङ्गकार्यं केनचित् अतिदेश सूत्रेण तास् प्रत्ययः णित्वत् नास्ति चेत् तिगन्तधातूनां च लघु उपधातूनां च इकः गुणादेशो भवति. केनचित् अतिदेशसूत्रेण तास् प्रत्ययः णित्वत् नास्ति चेत् तर्हि तत्र गुणादेशः भवति सार्वधातुकार्धधातुकयोः, नो चेत्
मनसि अस्ति वा तत्र कैः सूत्रैः निद्वद्भावं भवति इति?
न, तदेव अहं चिन्तयन्ती आसम्.
कुतः पठति भगिनी भवती?
सामान्यमङ्गकार्यमिति उपशीर्षकं
प्राप्तम्.
अतिदेशः दात्वादेशः इदागमः अतिदेशः एतत् सर्वं कृतं. तत्र गान्तुटादिभ्यो इणिङ् इति सूत्रमस्ति किल भगिनि?
तत्र ङित्वत् भवति इति. अपि च कित्वत् तस्य सूत्रं किम्?
तास् प्रत्ययस्य ङित्वद् नास्ति चेत् इगन्तधातुना लोगत्, तत्र कित्वत् इति न दत्तं किल? उपदेशसूत्रेण तास् प्रत्ययः ङित्वत् नास्ति चेत् अत्र ङित्वमेव आदिष्टम्.
सत्यं, परन्तु तस्य उपरि पश्यतु. तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययाः सिद्धाः तदा धातुप्रत्ययोः मध्ये सामान्य अङ्गकार्यं साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि. तर्हि तत्र अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययः ङित्वत् अथवा कित्वत् इति भवति वा इति आसीत्
अस्माकं सामान्यचिन्तनं किल, सार्वधातुक कित् ङित् प्रत्ययः इति अजादि सार्वधातुक अजादि कित् ङित् प्रत्ययः अजादि इति तादृशचिन्तनमस्ति किल, सामान्यचिन्तनं.
अस्तु,
किन्तु अत्र इति मया न वक्तव्यः अस्ति. किमर्थम् इत्युक्ते अत्र लुट्लकारः, किन्तु सामान्यचिन्तनं तादृशमस्ति, अजादिप्रत्ययः हलादिप्रत्ययः इति. तदेव किल विद्या भगिनी?
हा हा महोदय, इत्युक्ते सामान्यतया तत्र अतिदेशः इत्युक्ते कुत्रचित् नित्वं भवति, कुत्रचित् कित्त्वं भवति, कुत्रचित् अकित्वं भवति. अतः अत्र नित्वं कित्त्वम् इति उक्तम्, अकित्वमपि कुत्रचित् भवति.
किन्तु एतावता यद् अस्माभिः पठितं तत्र नित्वमेव पठितं, कित्त्वं न पठितं किल?
हा, अस्य अस्मिन् पाठे तु नित्वमेव. अस्मिन् पाठे तु नित्वमेव, परन्तु अन्यत्र कुत्रापि अतिदेशः इति वदामः चेत् तत्र नित्वं कित्वम् अकित्वं तत्र सर्वस्य चिन्तनं भवति.
अस्तु, तर्हि इगन्तदातवः नी इति स्वीकृत्य नियोगः लुट् अस्ति. इदानीं लुटः स्थाने तास् आदेशः भवति. तर्हि नियोगः तास् योगः तिप्, तत्र नियोगः ता सार्वधातुक अर्धधातुकयोः अनेन गुणः भूत्वा तत्र नेता इति रूपम् आगच्छति इति. तत्र सोपानानि किञ्चित् चिन्तयामश्चेत् तर्हि सूत्राणि के सन्ति इति विस्मृतवती. भवन्तः लुटः प्रथमस्य दारौ रसः इति आगच्छति. तर्हि तत्र तास् इति आदेशः आगच्छति. तास् स्थाने डा इति आदेशः अपि आगच्छति. तदनन्तरं यत्र तिप् इति दत्तमस्ति परन्तु अत्र तिप् इति मास्तु किल, तत्र तु तिङ्गन्तस्य चिन्तनं नास्ति. नियोगः तास् योगः तिप् इति किमर्थम्?
लुट् स्थाने तिप् आगच्छति खलु? लुट्स्थाने तिप्पा गच्छति तर्हि तत्र तिप् तिप् स्थाने लुटः प्रथमस्य धारौ रसः इति तिप् स्थाने डा इति आदेशः तर्हि नियोगः तास्योगः डा
नियोगः तास्योगः डा तदनन्तरं तत्र
दित्वमस्ति दित्वं डकारस्य संज्ञा
दित्वसामर्थ्यात्
तेः इत्यनेन टी भागस्य लोपः तास् इति प्रत्ययस्य टी भागस्य लोपः
तदनन्तरं ता इति भवति तकारस्य आकारस्य योजनेन ता इति भवति तदनन्तरं सार्वधातुकार्धधातुयोः कृत्वा नेता इति रूपं सूचयति अस्तु भगिनि अग्रे गत्वा सर्वत्र सिद्धतिङ् प्रत्ययः प्रदर्श्यते हूयोगः ताता हूयोगः ता समानतया अत्रापि हूयोगः तास्योगः तिप् इति कृत्वा तदनन्तरं हूयोगः ता गुणः भूत्वा होता कृयोगः ता कर्ता इति रूपाणि भवन्ति तिगन्तधातुः सेट् अस्ति चेत् यान्तमान्तदेश कार्यमपि भवति तत्र तर्हि षि इति धातुं स्वीकुर्मः तत्र धातुः इगन्तमस्ति इति कृत्वा षियोगः इता इति भवति इदानीम् इदानीं षि तत्र सार्वधातुक अर्धधातुकयोः इति कृत्वा षे इति भवति षेयोगः इता इदानीं सन्धिकार्यम् एकारस्य स्थाने अयादेशः कृत्वा शययोगः इता शयिता इति भवति तत्र एकं सूत्रमासीत् किल भगिनि शी धातुः कृते गुणस्य विषये किमपि
शीङ्गः सार्वधातुके शीङ्गः
तत्र सार्वधातुके इति आसीत् अस्तु अस्तु धन्यवादः तथैव अत्र युयोगः इता अपि सार्वधातुक अर्धधातुकयोः अनेन यो योगः इता यचो यवायावः यव्योगः इता यविता इति भवति सूत्राणि तु परिचितम् एव पठनीयं वा
न केवलं तत्र विवरणम् अपि च सहित अनुवर्ति
सार्वधातुक अर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति एचो यवायावः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् औ इति आदेशाः भवन्ति अचि परे अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम् इति तर्हि एकस्मिन् पक्षे अस्माकं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कार्यम् अभवत् अन्यत्र गुणकार्यमासीत् लघुपददातवः इति कृत्वा तदनन्तरं लिक् इति धातुं स्वीकृत्य तत्रापि लिक् योगः इता इति अस्ति तर्हि पुगन्तलघुपदस्य इति कृत्वा तत्र उपदास्थितस्य इकारस्य एकारः भूत्वा लेक् योगः इता लेखिता इति रूपं तथैव मिद् मेदिता वृषवर्षिता इति रूपाणि भवन्ति यत्र अस्ति तत्र रूपद्वयं क्लुपोरोलः इति वयं पूर्वं दृष्टवन्तः रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट् अस्ति किन्तु तासि च क्लुपः इति सूत्रेण क्लुप् धातुः परस्य परस्मे पदसंज्ञकः तासः इडागमः न भवति क्लुप् धातुः उपदेशे आत्मनेपदी किन्तु लुटि च क्लुपः इत्यनेन तासि परे अयं क्लुप् धातुः विकल्पेन परस्मेपदी अपि भवति तर्हि क्लुप् योगः इडागमस्य पक्षे इता इति भवति क्लुप् योगः इता क्लुप् योगः ता इति भवति उभयत्र गुणकार्यं भवति इति कृत्वा कृ यदा आसीत् तत्र कर्प् इति यत् भवति तत्र इदानीं रेफस्य स्थाने लकारः अतः कल्पिता इति रूपम् आगच्छति इडागमस्य अपक्षे कल्प्ता इति पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति
अस्तु भगिनि उत्तमम् अग्रे अरुणा भगिनी पठति वा मृज् धातोः वृद्धिः इति
आं महोदय मृज् धातोः वृद्धिः तदेव मृज् योगः ता मृजे वृद्धिः सूत्रेण मार्ज योगः ता व्रश्च ब्रश्च सृज मृज यज राज ब्राजाश्चाशां शः सूत्रेण माष्ट इति भवति. अहं प्रयत्नं करोमि. मृज् योगः तिप् तिप् स्थाने ता आगच्छति. दादत्तौ इति सूत्रेण मृज् वृद्धिः मृजे वृद्धिः सूत्रेण वृद्धिः भवति, ऋकारस्य वृद्धिः भवति. मार्ज् इति भवति मार्ज् योगः वश्च ब्रश्च सृज मृज यज राज ब्राज चषां सः इति सूत्र अत्र न अवगतामि माष्टा कथं भवति.
अत्र सूत्रे परिगणितधातवः उक्ताः सन्ति, अपि च षकारान्तधातवः छकारान्तधातवः उक्ताः सन्ति. व्रश्च भ्रज सृज मृज इति अस्ति किल सूत्रे, तदेव तदेव मृज् अत्र अस्ति. तर्हि धातुः मृज् अस्ति चेत् तत्र अधोबाहे सूत्रमस्ति, तत् पठतु भगिनि. मृजेर्वृद्धिः इति
सूत्रेण कथं
अधोभागे एव, तस्मात् अधोभागे एव यः यत्र इदानीं भवती पठितवती तस्मात् अधः साक्षात्
मृजेः वृद्धिः मृजेर्वृद्धिः. मृज् धातोः इकः वृद्धिः भवति सार्वधातुके च अधधातुके च प्रत्यये परे अङ्गकार्यत्वात् प्रत्ययः परे अस्ति एव. स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा अधधातुकः भवेत् एव. मृजे षष्ठन्त्यं वृद्धिः प्रथमान्तं प्रथमान्तं द्विपदं सूत्रम् इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्त अनुवृत्तिः अनुवृत्तिसहितसूत् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मृजेः अङ्गस्य इकः वृद्धिः कुत्र सति. मृज् धातौ इक् वर्णः अस्ति उक्तायाम् अत्र सूत्रेण मृजे वृद्धिः सूत्रेण इकवर्णस्य वृद्धिः भवति साधधातुक आददातुकप्रत्यये ता प्रत्यये आददातुकप्रत्ययः तथा वृद्धिः भवति.
अत्र तु सार्वधातुकः वा आर्धधातुकः वा इति चिन्तनं नास्ति किल. अनुवृत्तिसहितसूत्रे आर्धधातुके सार्वधातुके इति किमपि नास्ति. अङ्गस्य इकः वृद्धिः इति एव उक्तं, किन्तु किमपि प्रत्ययः परे भवेत् इति एव नियमः. अत्र तासु प्रत्ययः अस्ति इति कृत्वा तदेव निमित्तमस्ति मृज् इति धातोः. तत्र ऋकारः उपधायाम् अस्ति तस्य, तदेव इक् तस्य वृद्धिः भवति. तर्हि मार्ज् योगः ता इति अस्ति. तदनन्तरं व्रश्च ब्रश्च इति सूत्रमस्ति, तदपि पठतु भगिनि.
व्रश्च ब्रश्च सृज मृज यज राज ब्राजां शासः व्रश्च ब्रश्च सृज मृज मृज यज् राज् ब्राज् तुक् रहित चकारान्ताः चकारान्ताः च येषां धातूनां अन्तिमवर्णस्य स्थाने षकार आदेशो भवति जलि पदान्ते च. अलोन्तस्य इति सूत्रेण अन्तिमवर्णस्य एव स्थाने षकार आदेशः, न तु पूर्णपदस्य. व्रश्च 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 सृज
त्यजतु भगिनि. तत्र एतत् परिचित परिचितसूत्रमेव. इदानीं तत्र अनुवृत्तिसहितसूत्रम् एव
वदामि. अनुवृत्तिसहितसूत्रं व्रश्च ब्रश्च सृज मृज यज राज ब्राज च शशांसः जलिपदस्य अन्ते च. सूत्रं वदति षड् धातवः तुक्सहित शकारान्त अस्ति चेत् शकारान्तः च एषां धातूनाम् अन्तिमवर्णस्थाने शकार आदेशः भवति. कुत्र भवति इति अलोन्तस्य परिभाषासूत्रेण अन्तिमवर्णस्य स्थाने एव शकार आदेशः, न तु पूर्वपदस्य पूर्णपदस्य इति वदति. ततः मृज् मृज् धातु मृज् योगः मार्ज् योगः अत्र सुकुवर्णः अस्ति, ततः
शकारः अस्ति इति उक्तवती.
सकार अस्ति,
झल् वर्णः अस्ति, झलि परे किल,
जल् वर्णः अस्ति, ततः तत् स्थाने शकार आगच्छति.
कस्य स्थाने? जकारस्य स्थाने.
जकारस्य स्थाने शकार आगच्छति. माष् योगः स्तुनाश्चुः सूत्रेण शकार पूर्वमस्ति, तकार दन्ताल् दन्तं दन्तवर्णः स्थाने टकार आगच्छति. दन्त्यवर्ण तकार दन्त्यवर्णः तत्स्थाने टकार आगच्छति, माष्ट इति रूपम् उत्पन्नं भवति.
उत्तमं. तर्हि तत्र शृणाष्टुः इत्यस्य कार्यमपि भवति, यद्यपि न प्रदर्शितं, परिचितमेव अस्माभिः. तर्हि माष्ट इति रूपं. अग्रे भगिनि भगिनि.
मृज् धातुः वेट् अतः मृज् योगः इता इति रूपमपि कल्पनीयम्. अत्रापि वृद्धिकार्यं, किन्तु प्रत्ययः अजादिः अतः हल् संज्ञावसरे नास्ति, मार्जिता भवति. मृज् धातु मृज् योगः इता भवति, तत्र वृद्धिः भवति, मार्जा भवति, मार्जिता अजादि अस्ति, न तु जल् वर्णः, सो मार्जिता एव रूपम्.
उत्तमं. यदा इडागमः भवति तर्हि व्रज ब्रज इत्यस्य अवसरः न लभ्यते, तर्हि जकारः यावत् तिष्ठति केवलं वर्णमेलनमेव, तदुत्तरं मार्जिता इति द्वितीयरूपं भवति. तर्हि मार्ष्टा इति एकं रूपं, मार्जिता इति द्वितीयं रूपम्. उत्तमं भगिनि, धन्यवादः.
महोदय, अत्र क्षम्यतां, पुनः तत्र अस्धातोः विषये एकमपि वक्तव्यं. तत्र प्रत्येकं धातोः अर्थः अस्ति खलु, तस्य मूल अर्थः अस्ति, धातोः अर्थः, तस्य स्थाने यः आदेशः, सः अपि धातुः, भू इति धातुः इति वदामः चेत् तस्य पृथक् अर्थः भवति खलु, इत्युक्ते मूलधातोः अर्थस्य परिवर्तनं भवति इति अपि भवति खलु तत्र.
भू अनयोः अर्थः समानः एव किल?
न, अस् इति भुवि इति अस्ति, भू इति सत्तायाम् इति अस्ति.
हा, भुवि इत्यस्य अर्थः अपि सत्तायाम् इत्येव.
सत्तायाम् इत्युक्ते किमर्थम् अस् इत्यस्य भुवि इति उक्तं, न तु सत्तायाम् इति? अपि च तत्र चक्षीं स्थाने चक्षिङ् इति धातोः भिन्नः अर्थः, क्या इति धातोः, क्या इत्यस्य भिन्नः अर्थः.
ओ इति वा? ओहो, समानार्थको नास्ति तत्र. अस् अपि च भू, यद्यपि भुवि इति उक्तं, किन्तु रामः भवति, रामः अस्ति, द्वयमपि समानमेव किल?
तत्र भेदः अस्ति महोदय. अस् अपि च भवति, भू इत्यस्य भेदः अस्ति, सूक्ष्मभेदः अस्ति.
जानाति चेत् किञ्चित् प्रदर्शयतु, सर्वेषां लाभाय भवति.
न, इदानीं न स्मरामि, अनन्तरं श्रुत्वा अथवा दृष्ट्वा वदामि. तत्र भेदः अस्ति, कुत्रचित् मया श्रुतम् अस्तेः अपि च भवति तयोः समानार्थः नास्ति.
ओ इत्युक्ते रामः अस्ति, रामः भवति इति न वक्तव्यं वा?
भेदः अस्ति तत्र, सूक्ष्मशास्त्रभेदः अस्ति.
ओ हो हो, अस्तु.
तत्र समयभेदः वा कालभेदः इति तस्मिन् अवसरे भू इत्यस्य प्रयोगः भवति इति मयापि कुत्रापि श्रुतम्.
अस्तु, किन्तु उत्तम तर्कः एतदपि। तर्हि आहत्य तर्कद्वयं लब्धम् अत्र। एकं तु यदि इदानीं अस्तेर्भूः इत्यत्र भू इति औपदेशिकधातुः एव उक्तम् इति स्वीकुर्मश्चेत् तत्र भू इति बहवः धातवः उक्ताः धातुपाठे इति कृत्वा कः धातुः अत्र स्वीकरणीयः इत्यस्मिन् विषये क्लेशः भवति। अतः अत्र भू इति शब्दरूपम् एव इति स्वीकर्तव्यमिति एकः तर्कः। द्वितीयतर्कः, इदानीं तत्र अर्थभेदः वर्तते मूलधातोः मध्ये। यदि भू इति औपदेशिकधातुः एव उक्तः इति स्वीकुर्मश्चेत् तत्र इदानीं भू इति इत्यस्य अर्थः सत्तायाम् इति भवति, किन्तु अस् इत्यस्य अर्थः भुवि इति कृत्वा अपि अत्र केवलम् आदेशः शब्दरूपः एव आदिष्टः, न तु औपदेशिकधातुः इति तर्कद्वयम् अद्य लब्धम्। उत्तमं भगिनी, धन्यवादः, समीचीनम्।
धन्यवादः महोदय।
अस्तु, अनन्तकृष्णमहोदय अग्रे। तास् प्रत्ययः,
तास् प्रत्ययः ङ्यत्वति चेत् गुणनिषेधः। केनचित् आतिदेशसूत्रेण तास् प्रत्ययः तास् प्रत्ययः ङ्यत्वद्भवति चेत् तत्र दोषः अस्ति इति भवति चेत् गुणकार्यं निषिध्यते। ङिति च, यः प्रत्ययः ङित् कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति। अनुवृत्तिसहितसूत्रं किङिति च एकः गुणवृद्धि न इति निषेधसूत्रम्। अतः पञ्चत्रिंशत् कुठादेः धातवः अपि च विज् धातुः आगत्य षड् त्रिंशत् धातुभ्यः तास् प्रत्ययः ङित्वत् भवति इति कारणतः ङिति च इत्यनेन गुणनिषेधः। क्षम्यतां, यथा इगन्तधातुषु नु इत इति धातु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्रसक्तिः अस्ति। तत्र इत इति अस्ति इडागमः, इडागमानुकूलधातुः, प्रत्ययः पीडानुकूलदातु प्रत्ययः इत्यस्मात् कारणात् इता भवेत्। तत्र एवं भवति चेत् गुणः गुणस्य प्रसक्तिः अस्ति। परन्तु गाङ्कुटादिभ्यो ङिणङ्यत् इत्यनेन कुठादिगणीयेभ्यः धातुभ्यः ङ्यत् ङित् भिन्नप्रत्ययः ङित्वत्। तास् प्रत्ययः ङ्यत् ङित् भिन्नः, ओहो ओ आग्निन् इति अस्ति, अस्तु, तेन सः तास् प्रत्ययः ङित् अपि नास्ति ङित् अपि नास्ति इत्यस्मात् कारणात् भिन्नप्रत्ययः इत्यस्मात् कारणात् सः प्रत्ययः ङित्वत् भवति इति। ङ्यति च इत्यनेन सूत्रेण गुणनिषेधः, तेन नु इता अत्र गुणः बाधितः भवति। परन्तु अत्र अचिष्णुधातुभ्रुवां योर्यङ् वङौ इत्यनेन इकारान्त उकारान्तधातुरूपी अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण यङ् उवङ् आदेशः भवति आजादिप्रत्यये परे। तेन नुव इता इत्यस्मिन् ऊकारस्य उवङ् आदेशः भवति नुव् इति भवति, नुव् इता नुविता इति भवति। तेन एव दूयिता दुविता, गुयिता गुविता, कुयिता कुविता। सो तेन तत्र प्रथमः अंशः अस्ति स च तास् प्रत्ययः अत्र इडागमचिन्तनं यथा भवति तत्र पूर्वं स्थितस्य अङ्गस्य तत्र गुण प्रसक्तिः इक् इति अस्ति चेत् गुणस्य प्रसक्तिः अस्ति किमर्थं चेत् तास् इति आर्धधातुक प्रत्ययः परन्तु डाङ्कुटादिभ्यो इति सूत्रं वदति कुठादि गाङ् अनन्तरं कुठादि धातुभ्यः तास् कुठादिधातुभ्यः प्रत्ययः ङित् भिन्नः अथवा ङित् भिन्नः इति भवति चेत् स च प्रत्ययः ङित्वत् भवति इति सूत्रं वदति ङित्वत् भवति इत्यस्मात् कारणात् ङित् ङिति चैतन्येन सूत्रेण गुणनिषेधः तेन गुणनिषेधः भवति तेन गुणः न भवति परन्तु अचिष्णुधातुभ्रुवं योरिवङ्गौ इति सूत्रं वदति यत्र उकारान्त इकारान्तदातवः धातुरूपी अङ्गम् अस्ति तस्य अङ्गस्य इकारस्य उकारस्य इयङ् उवङ् इति आदेशः भवति कदा अजादिप्रत्ययपरे अत्र इत इति अजादिप्रत्ययः इत्यस्मात् कारणात् उवङ् आदेशः भूत्वा नुविता नुविता इति भवति तेनैव क्रमेण दुविता गुविता कुविता इति
उत्तमं महोदय. कुटादिगणः कुटादि इति अन्तर्गणः कस्मिन् गणे अस्ति?
कुटादिगणः अहं चिन्तयामि भ्वादिगणीय अन्तर्गणः इति अहं चिन्तयामि.
न तुदादिगणि षष्ठमदि कुटादिगणे अन्तर्गणः अस्ति कुटादि कुटादिगणः. किन्तु इदानीम् अष्टाध्यायी डाट् काम् पश्यन् अस्मि तत्र कुटादि गणे पञ्चचत्वारिंशत् धातवः उक्ताः सन्ति. अत्र तु महोदयेन पञ्चत्रिंशत् धातवः एव उक्ताः इति स्वीकृतः. अस्मिन् विषये कस्यापि चिन्तनमस्ति वा?
कुत्र अष्टाध्यायी डाट् काम् मध्ये किम् उक्तम्?
पञ्च चत्वारिंशत् धातवः कुटादिगणीय धातवः
इत्युक्ते 45 इति वा?
हा हा हा
प्रायः तत्र मुद्रणदोषः अस्ति.
न न अत्र मुद्रणेन नास्ति, तत्र आवलिः अस्ति, तत्र फिल्टर्स् अस्ति, उपयोगकरमस्ति. बहु प्रायः सर्वैः न दृष्टं चेत् इदानीं किञ्चित् निमिषद्वयं तत्र सर्वे.
सूत्रसङ्ख्या किं महोदय?
न न सूत्रसङ्ख्या नास्ति, अत्र अष्टाध्यायी डाट् काम् गच्छन्तु सर्वे प्रथमम्.
अस्तु अस्तु
तत्र धातुपाठः इति स्वीकरोतु. तत्र वामभागे उपरि फिल्टर्स् इति अस्ति किल, तत् स्वीकरोति चेत् तत्र द्वितीयः अस्ति अन्तर्गणः इति. तत्र केवलं कुटादिः इति स्वीकरोति चेत् तत्र आवलिः लभ्यते.
भवान् कौण्ट् कृतवान् वा तत्र?
न न अत्र अधोभागे जालपुटे एव दत्तं
45 दत्तु इति वा?
हा
एतद् बहु उपयोगकरमस्ति. तत्र फिल्टर्स् निलोश् बोडर् महोदयेन स्थापितमस्ति. तत्र गणः अन्तर्गणः पदित्वम् इडागमः सकर्मकः वा अकर्मकः वा तत्र उपदेश तत्र शोपदेशदातवः नोपदेशदातवः अनुबन्धः आदिवर्णः अन्त्यवर्णः उपदावर्णः इति बहु किमपि स्थापितम्. अतः उदाहरणं वक्तव्यं चेत् एतत् सर्वम् उपयुक्य एकं धातु झटिति स्वीकर्तुं शक्यते. किन्तु तत्र पञ्चचत्वारिंशत् धातवः आवल्यां दृश्यते. भवतु
कम्पेरिसन् करणीयम् अत्र अत्र अपि च तत्र.
आमामां किमस्ति इति द्रष्टव्यं.
प्रायः तत्र इक् यत्र नास्ति तेषां गणनं न कृतम् इति.
सत्यं सत्यं.
किमिति?
इक् वर्णः नास्ति.
इक् वर्णः नास्ति चेत् उदाहरणार्थं काङ् इति अस्ति, तस्य गणनं प्रायः न भवेत् अत्र. हड् अनन्तरम् एकमेव अस्ति.
पुनः वदतु महोदय किं नास्ति तत्र?
इक् वर्णः नास्ति इत्यस्मात् कारणात् तत्र 45 माइनस 10 तथा गच्छति इति अहं चिन्तयामि. उदाहरणार्थं हड् इति अस्ति,
धातोः अन्ते ईक् वर्णः, नो चेत् उपधायाम् ईक् वर्णः नास्ति चेत् इदानीम् अस्माकं चिन्तनं तु अग्रकार्यमस्ति किल. हेमा भगिनि, अतः प्रायः त्यक्तः. किन्तु अतः पञ्चत्रिंशत् कुटादयः धातवः अपि इति, तत्र कुटादयधातवः पञ्चत्रिंशत् इति एव न अवगन्तव्यम्.
एतावत्पर्यन्तं तावत् तदा एव मनसि आसीत् किल, तथैव.
आमामाम्, इदानीमेव मया दृष्टं
सत्यं.
किन्तु महोदयेनापि तादृशं न उक्तम्, अतः महोदयस्यपि परिवर्तनं न कार्यं किमपि. अतः पञ्चत्रिंशत् कुटादयधातवः अपि च विज् धातुः आहत्य षट्त्रिंशत् धातुभ्यः ताः प्रत्ययः ङिद्वद् भवति. इति उक्तं,
परन्तु तत्र धातुद्वयमेव तत्र इक् नास्ति इति.
अस्तु, गृहपाठेन वयं सर्वे कुर्मः.
स्पर् अस्ति, स्पल् अस्ति, अनन्तरं कट् त्रयं गणितवान्, परन्तु अन्यत्र सर्वत्र अस्ति.
आमामां, तत्र अनन्तरं चिन्तयामः.
अस्तु,
मातुः पुस्तके प्रायः एतादृशमेव दत्तमस्ति, पञ्चत्रिंशत् एव महोदय अपि तथा उक्तवान्.
ओ, इति दत्तं वा, दृष्टवती वा?
मातुः पुस्तके प्रायः तथा अस्ति इति चिन्तयामि.
ओहो, न दृष्टवती,
न दृष्टवती, तथा अस्ति इति प्रायः. नो चेत् स्पेसिफिक्लि पञ्चत्रिंशत् इति किमर्थं वदति खलु?
यथा अनन्तकृष्णमहोदयेन उक्तं, प्रायः अत्र विवक्षायां पञ्चत्रिंशत् इत्येव स्वीकरणीयम् इति. अत्र अङ्गकार्यम् इति विवक्षा तत्रैव भवति किल,
न पता, परन्तु अत्र 45 मध्ये तत्र धातुत्रयमेव तत्र यस्य इक् वर्णः नास्ति इति उक्तम्.
ओ अस्तु, परिशीलयामः.
अस्तु अस्तु,
स्फुर् स्फुल् स्फुर् स्फल् इति सर्वमस्ति. तत्र अदन्त अधुपदधातवः बहवः सन्ति, तत्रापि
अधुपदधातवः
आवल्यां
बहवः कुत्र अस्ति, बहवः कुत्र?
फर् इति अस्ति, स्फल् इति अस्ति,
तदनन्तरं कड् इति, त्रयः एव सन्ति.
हा, त्रयः एव.
अस्तु, सर्वे गृहपाठरूपेण एतस्य चिन्तनं कुर्वन्तु.
अहं न स्मरामि अत्र पञ्चत्रिंशत् भवतु, पञ्चत्रिंशत्
स्मारयिष्यामि. अस्तु महोदय, अग्रे ऊर्णु.
ऊर्णु, ऊर्णु इत विभाषोर्णोः इत्यनेन सूत्रेण ऊर्णु धातुतः विधीयमानाः इडादिप्रत्ययाः विकल्पेन ङ्यत्वत्, तेन विकल्पः अस्ति इत्यस्मात् कर्तो तत्र दत्तः. ऊर्णु इत अत्र प्रायः रूपद्वयं भवति, ऊर्णुविता इति एकं रूपम्, अनन्तरं तत्र विकल्पं ङित्वत् एव. सो तेन ऊर्णु ऊर्णु इत्यस्य नु इत्यस्य णो भवति, गुणः भवति ऊर्णो. अनन्तरं एचो यवायवः इति भवति खलु, तत्रापि ऊर्णविता इति भवति खलु, ऊर्णुविता ऊर्णविता इति रूपद्वयं भवति खलु महोदय.
ऊर्णुविता इत्यत्र अजिष्णुधातु ब्रुवाम् इत्यनेन
आम् आम् ऊर्णविता इति एचो यवायवः इत्यनेन औ
सत्यम्
अस्तु
सत्यम् अग्रे
अग्रे पठामि वा अथवा अन्यः
अन्य
लघु उपधधातुषु टिप् इत तत्र यत्र लघु उपधधातवः इति तत्र प्रसङ्गः टिप् इत पुगन्धलघुपतस्य इत्यनेन गुणप्रसक्तिः अस्ति, परन्तु गाङ्कुठादिभ्यो अङ्त् इत्यनेन कुठादिगणेभ्यः धातुभ्यः ङित् ङित् भिन्नः प्रत्ययः तास् प्रत्ययः ङित् ङित् भिन्न, अतः ङित्वत् ङित् ङिति च इत्यनेन सूत्रेण गुणनिषेधः, तेन तत्र गुणः न भवति, टिपिता इति भवति, डिपिता क्षम्यताम्। एवमेव पुट् इता, पुटिता, स्फुरिता, स्फुरिता, कृङ्ता, कृङ्ता इति भवति। अत्र अचिष्णुधातुभ्रुवां यो इत्यस्य प्रसक्तिः न भवति, किमर्थं चेत् तत्र अन्ते अङ्गस्य अन्ते इकारः उकारः नास्ति, एतत् सर्वं लघुपदा उपदाप्रसङ्गः, अत्र तु तस्य प्रसक्तिः अपि नास्ति इति स्मत् कारणात् निषेधः गुणनिषेधः अस्ति इति भवति चेत् सर्वत्र केवलं वर्णमेलनमेव भवति, पुटिता, स्फुरिता, कुडिता, कुडिता इति रूपम्।
कूद् नास्ति, कृ,
ओ क्षम्यतां, क्रीडिता, क्रीड् क्रीडिता इति भवति,
क्रीडिता। अपि च महोदय तत्र गाङ्कुटादिभ्यो इनिङ्ित् इति वक्तव्यं, तत्र अणिङ्ित् इति वदति चेत् भ्यो इति न सन्धि भवति किल, गाङ्कुटादिभ्यः। गाङ्कुटादिभ्यो, तदनन्तरं यकारः अस्ति, तस्य उच्चारणम् इ इति वयं वदामः, तत्र इ निङित् इनिङित् इनिङित् इति इनिङित्
गाङ्कुटादिभ्यो निङित् एवं वा,
गाङ्कुटादिभ्यो इनिङित् इनिङित् गाङ्कुटादिभ्यो इनिङित्
गाङ्कुटादिभ्यो इनिङित् इति
धन्यवादः।
अग्रिमजन्मनि सम्यक्तया वदामि,
किमिति
अग्रिमजन्मनि सम्यक्तया वदामि,
अहम्
अन्यजन्म नास्ति भगिनि, अन्यजन्म नास्ति भगिनि,
अहं तु गतजन्म प्रयत्नं कुर्वन् अस्मि, अस्मिन् जन्मनि मया उक्तं गाङ्कुटादिभ्यो इनिङित् इति, कोरोना वैरस् अपगच्छति, अस्तु अन्तिमवाक्यमपि पठतु महोदय, अनन्तकृष्णमहोदय वा, उद्विज् योगहिता,
उद्विज् इता मुगन्धलघुपदस्य इत्यनेन गुणप्रसक्तिः, विजयेट् इत्यनेन तुदादिगणीय विज् धातुतः सर्वे विधीयमानाः सेट् प्रत्ययाः ङित्वत्, तास् प्रत्ययः अत्र इडादिः, ङिति च इत्यनेन गुणनिषेधः, उद्विजिता इति, तत् उद्विजिता इत्यस्य प्रसङ्गः, तत्र पुगन्धलघुपदस्य इत्यस्य प्रसक्तिः अस्ति भवतु नाम, परन्तु तत्र विज् धातोः सूत्रमस्ति विज इट् इत्यनेन उदादिगणीय विज् धातुतः सर्वे विधीयमानाः सेट् प्रत्ययाः ङित्वति, यथा गाङ्कुटादिभ्यो ङिणिङ्यत् तेन सूत्रेण तद्वत् अन्यत् सूत्रमस्ति विज् इति विज इट् इति, तत् सूत्रं वदति विज् इति धातोः प्रसङ्गे यत्र यत्र ये ये प्रत्ययाः विधीयन्ते ते सर्वे सेट् प्रत्ययाः ङित्वत् भवन्ति इति, तास् सेट् इत्यस्मात् कारणात् ङित्वत् इति भवति, तेन गुणनिषेधः भवति, तत्र पुगन्धलघुपतस्य इत्यस्य निषेधः भवति, तेन उद्विजिता इति केवलं वर्णमेलनं भवति।
अपि च विज् इति धातुः सर्वदा उपसर्गपूर्वकः भवति वा, उद् तत्र उद्विज् इति इत्यस्य रूपं चिन्तनम् इति किमपि अस्ति वा, विद्याभगिनी जानाति वा?
महामहोदय उद् उपसर्गपूर्वकः अस्ति, नित्य
नित्य उपसर्गपूर्वकः, यदि नित्य उपसर्गपूर्वकः अस्ति किमर्थं तत्र औपदेशिक अवस्थायामेव उद्विज् इति न दत्तं प्रायः अनेकाच् भवति इत्यतः वा
अत्र उपसर्गः योजितः अस्ति खलु
आमां नित्यम् उपसर्गः एव भवति विज् इति धातुः तर्हि किमर्थम् औपदेशिके एव उपदेशायामेव
तत्र लङ्लकारे रूपं भिद्यते उपदेशावस्थायामेव उद्विज् इति वदामः चेत् तत्र रूपं भिद्यते यतोहि तत्र अडागमः धातोः आदौ भवति तत्र उद्योगः अद्विज् इति कृत्वा एव तत्र रूपस्य साधनं भवति खलु उद्विज् इति एव मूलधातुः अस्ति चेत् रूपं भिद्यते लङ् लकारे यत्र यत्र अडागमः भवति तत्र रूपं भिद्यते लङ् लुङ् लङ् सर्वत्र
अपि च लिट् इत्यत्र विविजे इति दृश्यते सर्वत्र आशीर्लिङ्गि अपि विजिशिष्ट इति अस्ति तत्रापि उद् इति न भवति लुङि अपि तादृशं नास्ति तर्हि तत्र किमपि नियमः अस्ति
अपि च महोदय तत्र कुटादिगणे अत्र अष्टाध्यायी डाट् काम् मध्ये हुड् इति एकः धातुः अस्ति परन्तु तत्र हुड् धातोः गुणः जातः किमर्थम् कुटादिगणे अस्ति चेत् तत्र गुणनिषेधः भवति खलु परन्तु अत्र होडिता इति रूपं दत्तमस्ति लुट् लकारे तर्हि कुटादिगणे अस्ति वा अयं धातुः
हुड् इति वा धातुः
हुड् तुदादिगणे धातुः सङ्घाते
होडिता इति अस्ति तर्हि प्रक्रियां पश्यामश्चेत् तत्र
गुणः अस्ति खलु हुड्योगः इता होडिता इति दत्तमस्ति पुगन्धलघुपदस्य च इत्यनेन गुणः जातः अतः एव होडिता इति रूपं तर्हि तत्र कुटादिगणे अस्ति चेत् गुणः गुणनिषेधः खलु तर्हि अयं धातुः कुटादिगणे अस्ति वा इति प्रश्नः
ओ तर्हि प्रायः तत्र दोषः अस्ति अस्तु अहं सूचयिष्यामि तत्र हुण्ड् इति एव उक्त्वा पुनः तस्य अल्गारिदं द्रष्टव्यम्
अपि च अन्यत्रापि तथैव अस्ति वा इति द्रष्टव्यम् अत्र कुटादिगणे अत्र चत्वारिंशत् धातवः दत्ताः पञ्चचत्वारिंशत् धातवः सर्वत्र गुणः जातः वा न जातः इति द्रष्टव्यम्
आमामाम् अहं दृष्ट्वा वदिष्यामि प्रायः अल्गारिदं मध्ये किमपि क्लेशः भवति
अष्टाध्यायिकां तस्य दोषः इति भवत्याः
आमामाम् तत्र भवितुमर्हति तत्र अल्गारितमेव ते उपयुज्यन्ति
मातुः पुस्तके तु पञ्चत्रिंशत् एव दत्तम्
ओ तर्हि तदेव प्रामाणिकम् अस्तु अग्रे विद्याभगिनी पठति वा सामान्यम् अङ्गकार्यं मनसि निधाय
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयं भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्लकारस्य रूपसिद्धिः भुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्लकारस्य रूपसिद्धिः भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्लकारस्य रूपसिद्धिः निजन्तधातूनां लुट्लकारस्य रूपसिद्धिः सनन्तधातूनां लुट्लकारस्य रूपसिद्धिः यङन्तधातूनां लुट्लकारस्य रूपसिद्धिः यङ् लुगन्तधातूनां लुट्लकारस्य रूपसिद्धिः क्यच् क्यश् क्यङ् प्रत्यान्तधातूनां लुट्लकारस्य रूपसिद्धिः अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत् इडादयः प्रत्ययाः संयोजनीयाः पुनः धातुः अनिट् इति चेत् अनिडादयः प्रत्ययाः संयोजनीयाः तर्हि अत्र अस्माकं पठनार्थं वर्गीकरणम् अस्ति धातूनां वर्गीकरणं कथं वर्गीकरणमिति चेत् अत्र भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्लकारस्य रूपसिद्धिः तदनन्तरं भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां हलन्त सेट् धातूनां इडागम रूपसिद्धिः लुट्लकाररूपसिद्धिः
अत्र किमर्थम् एतादृशवर्गीकरणम् इत्यस्मिन् विषये वदति वा
हा इत्युक्ते अत्र भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं एव स्वीकृतमस्ति तत्र भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं तत्र त्रयः विभागाः अजन्तदातवः हलन्तदातवः अजन्तदातवः प्रायेण अजन्तदातवः सर्वे धातवः अनीतः केवलं कानिचन धातवः केचन धातवः एव तत्र सेटः इत्युक्ते चतुर्दश धातवः अपि च तत्र ऊकारान्तः ऋकारान्तः प्रतिनिधिः अपि अस्ति तर्हि प्रायेण सर्वे धातवः अनिटः इति कृत्वा तत्र अजन्तधातूनाम् एकः विभागः अस्ति अनन्तरं हलन्तधातुषु द्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सेट् धातुः अपि च देट् अनिट् इति पृथक् विभागः किमर्थं तत्र क्रयादिगणपर्यन्तमेव स्वीकृतम् इति चेत् चुरादिगणे निच् प्रत्ययः नित्यः निच् प्रत्ययः नित्यरूपेण विधीयते धातुतः अतः तत्र निजन्तधातूनाम् इति पृथक् विभागः अस्ति तस्मिन् चुरादिगणीयधातुः अपि अन्तर्गतः तदर्थं तत्र चतुर्थविभागः अस्ति निजन्तधातूनां लुट्लकारस्य रूपसिद्धिः इति तदनन्तरं सनन्तधातूनां लुट्लकारस्य रूपसिद्धिः इदानीं तत्र सनादिप्रत्ययं योजयित्वा सन् प्रत्ययं योजयित्वा सनन्तधातूनां लुट्लकारस्य रूपसिद्धिः यङन्तधातूनां लुट्लकारस्य रूपसिद्धिः यङ् लुगन्तानां रूपसिद्धिः क्यच्क्यङ् इति येषां रूपसिद्धिः इति दत्तं
भगिनि अत्र तृतीय विभागे पश्यतु भुआदिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनाम् इति अस्ति
हा एकः विभागः अस्ति सेट् हलन्तधातुः सेट् हलन्तदातवः अपि च अन्यः विभागः अस्ति वेट् अनिट् इति तत्र लिमिटेड् अस्ति खलु सेट् हलन्तदातवः एव अधिकाः प्रायेण हलन्तदातवः सेटः
तर्हि तत्र सेटां हलन्तधातूनाम् इत्युक्ते हलन्तधातोः परे तत्र ईकारः निश्चयेन भवति इडागमः भवति तर्हि तत्र सुलभ तत्र हल् सन्धेः चिन्तनं न कार्यम् इत्यतः प्रायः पृथक्तया कृतम् इति वा
न तत्र आधिक्यम् अस्ति खलु सेट् धातवः आधिक्येन हलन्तदातवः सेट् इति कृत्वा पृथक् विभागः तत्र सर्वत्र इडागमः भवति कुत्रचित् तत्र अनिर्धातवः द्वादिक एकशतं दातवः अनिर्धातवः अपि च वेटां तत्र पञ्चत्रिंशत् किमपि अस्ति खलु वेट् धातवः इति परिगणिताः एव अतः अत्र पुनः पृथक् विभागः
किन्तु तत्र आधिक्येन इत्यनेन वा नो चेत् तत्र हल् सन्धेः चिन्तनं भवति यत्र इडागमः न भवति तत्र हल् सन्धेः चिन्तनं कार्यं यत्र इडागमः भवति तत्र केवलं वर्णमेलनमेव भवति इत्यतः
तदपि अस्ति तत्र सेट् अनिट् सेट् अपि च अनिट् मिक्स् कुर्मः चेत् तत्र भ्रमः भवति खलु कुत्र समानधातवः एकत्र स्थापयामः चेत् तत्र अस्तु अत्र सर्वत्र इडागमः अस्ति तत्र कार्यं कर्तुं शक्नुमः अन्यत्र अनिर्धातवः अस्ति चेत् कुत्रापि इडागमः नास्ति तत्र हल् सन्धिः भवति इति अपि च वेट् धातुः परिगणिताः पञ्चत्रिंशत् धातवः तेषां कृते विकल्पेन इडागमः
सत्यम् अपि च निजन्तः सनन्तः यङन्तः यङ् लुगन्तः क्यच् क्यष् क्यङ् इति सनाधि धातवः येषां तत्र क्रियापदं सिद्ध्यति सनादिप्रत्ययेषु केचन प्रत्ययाः सन्ति येषां योजनेन तत्र प्रातिपदिकं लभ्यते तेषामपि अत्र चिन्तनं नास्ति किन्तु येषां योजनेन तत्र क्रियापदं सिद्ध्यति नूतनधातुः सिद्ध्यति तदेव अत्र चिन्तितम् इति किल अस्तु अग्रे पठतु भगिनि अग्रे गत्वा
अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत् इडादयः प्रत्ययः संयोजनीयः पुनः धातुः अनिट् इति चेत् अनिडादयः प्रत्ययः संयोजनीयः तद्वयं जानीमः एव भुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट् लकारस्य रूपसिद्धिः आकारान्त च एजन्तदातवः सामान्याः आकारान्तदातवः यथा जानीमः अत्र प्रथमविभागः अस्ति भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तधातूनां रूपसिद्धिः तत्र तस्मिन् प्रथमश्रेणी अस्ति आकारान्ताः एजन्ताः च धातवः सामान्याः आकारान्ताः धातवः अस्तु एजन्तदातवः अपि अकारान्तः भवन्ति तत्र आदेशोपदेशे शिति इत्यनेन अत्वं भूत्वा अकारान्तः भवति यथा जानीमः सर्वे एकाचः अकारान्तदातवः अनिटः सन्ति अत्र च किमपि विशिष्टकार्यं न भवति केवलं योजनं दयोगः ता धाता इति रूपं तर्हि परस्मैपदे त्रिषु लिङ् त्रिषु वचनेषु रूपाणि प्रथमपुरुषे एकवचने धाता दातारौ दातारः दातासि दातास्तः दातास्त दातास्मि दातास्वः दातास्मः आत्मनेपदी दाता दातारौ दातारः दातासे दातासाते दाताध्वे दाताहे दातास्वहे दातास्महे अग्रे गत्वा केवलं प्रथमपुरुषस्य एकवचनान्तरूपं प्रदर्श्यते तर्हि दरिद्रा धातुः अनेकाच् धातवः से सर्वे सेटः इति जानीमः अत्र तादृश एकः अकारान्तदातवः आकारान्तधातुः वर्तते दरिद्रा धातुः तत्र च एकं वार्तिकमस्ति दरिद्राते रार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा धातोः आर्धधातुके प्रत्यये परे अकारलोपः भवति तर्हि अत्र दरिद्रा इति अनेकाच् धातुः अस्ति औपदेशिकधातुः परन्तु अनेकाच् अस्ति अत्र दरिद्रायोगः अनेकाच् इति कृत्वा इडागमः भवति दरिद्रायोगः इता दरिद्रायोगः इता अधुना तत्र दरिद्रा इति आकारान्तधातुः सामान्यतया तत्र सार्वधातुकप्रक्रियायाम् आकारान्तधातुः अस्ति चेत् तत्र आकारस्य लोपः भवति अत्र तु तादृश किमपि सूत्रं नास्ति यतोहि तास् इति प्रत्ययः अत्र कित्नित् नास्ति अतः अत्र विषवार्तिकमस्ति दरिद्राते आर्धधातुके लोपो वक्तव्यः इति तर्हि आर्धधातुकप्रक्रियायां सर्वत्र दरिद्राधातोः आकारस्य लोपः भवति आर्धधातुकप्रत्यये परे अतः दरिद्रयोगः इता दरिद्रिता इति रूपम् एजन्तधातवः आदेच उपदेशे शिति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ श इत्यस्य सहश्रित् न शित् अशित् तस्मिन् अस्तु तस्मिन् विषये अशीति नै तत्पुरुषः अत्र अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति तर्हि एजन्तधातोः अत्वं भवति उपदेशे अशिति षिद्भिन्नप्रत्ययः षिद्भिन्नप्रत्ययः अस्ति चेत् षिद्भिन्नः प्रत्ययः अस्ति चेत् भवति अस्ति चेदेव भवति इत्युक्ते तत्र प्रत्ययः नास्ति सदृशः प्रत्ययः नास्ति चेदपि भवति उपदेशे अवस्थायां धातोः अनैमित्तिकम् इति कृत्वा तत्र धातोः अत्वं भवति एव परन्तु यदि प्रत्ययः अस्ति चेत् तादृशप्रत्ययः षित् प्रत्ययः न भवेत् इति अत्र सूत्रस्य अर्थः तर्हि दे योगः ता अत्वं भवति आदेशोपदेशे षित् इत्यनेन अत्वं तर्हि धा योगः ता अत्र योजनं धाता ध्यै योगः ता अत्रापि पुनः आत्वम् आदेशोपदेशे षित् इत्यनेन ध्यायोगः ता अत्र ध्याता शो योगः ता अत्वं शाथा गै योगः ता आत्वं गाता इति रूपम्
उत्तमं भगिनि अन्यः कोऽपि दृश्यते 3286 इति
अहं न पश्यामि
अत्र मम अटेण्डी लिस्ट् मध्ये अस्ति इण्डिया राजशेखरन् महोदय संख्या इव दृश्यते भवान् भागम् ओढुम् इच्छति वा
अहं केवलं शृणोमि
अस्तु उत्तमं भवता आगतम् अस्तु शृणोतु भगिनि महोदय एकमेव निमिषम् अवशिष्टमस्ति तर्हि इदानीं किं पठनीयम् इकारान्तधातवः इति तत्र सामान्य इकारान्तधातवः तदनन्तरं विशेष इकारान्तधातवः इति अस्ति इति कृत्वा प्रायः अत्र स्थगयामः वा
अस्तु महोदय
अस्तु अत्र भगिनी समापनात् पूर्वं किञ्चित् मानचित्रमिव वदति वा तत्र वर्गीकरणम् अस्माभिः अधीतं तत्र अष्टवर्गीकरणम् इति तस्मात् उत्तरम् इत्युक्ते तत्र यदा भुआदिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तदातूनां लुट् लकारस्य रूपसिद्धिः, ततः तत्र आकारान्तः एजन्तदातवः इति अस्ति किल, तत्र चतुर्दश वर्गीकरणं चतुर्दशवर्गीकरणमस्ति किल, तत् एकवारं सर्वेषां कृते स्मारयति वा, मानचित्रं भवति
इत्युक्ते तत्र अजन्तधातूनां वर्गीकरणम् इत्युक्ते अजन्तधातूनाम् आकारान्तदातवः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः एजन्तदातवः एजन्तदातवः अधुना अकारान्तः भवन्ति आरधातुकप्रक्रियां. तर्हि आहत्य आकारान्तः ह्रस्वाकारान्तः नास्ति, आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः सप्त प्रभेदाः.
एजन्तः अपि आकारान्तः भवन्ति इति कृत्वा केवलं सप्त एव, अपि च ह्रस्वाकारः अस्ति चेत् अतो गुणे इत्यनेन लोपः भवति किल,
अतो लोपः
अतो गुणे नास्ति, अतो लोपः इत्यनेन लोपः भवति, तर्हि सप्त अन्तर्गणः भवति.
सत्यम्.
अस्तु, तत्र हलन्तधातुः अस्ति चेत्
हलन्तदातुः अस्ति चेत् उपधायां कः वर्णः अस्ति इति द्रष्टव्यम्. उपधायाम् अकारः अस्ति चेत् अदुपददातवः, इदुपददातवः, उदुपददातवः, ऋदुपददातवः अवशिष्टाः इति पञ्चप्रभेदाः.
इति पञ्चप्रभेदाः वर्तन्ते इति मनसि भवति चेत् चिन्तनं समीचीनं भवति. अस्तु, अत्र स्थगयामः. नमस्कारः.
नमस्कारः. धन्यवादः.
नमस्कारः महोदय. धन्यवादः.